ओम नमो भगवते वासुदेवाय। अथ विंशोऽध्यायः। श्रीशुक उवाच। अत परम् प्लक्षादीनाम् प्रमाणलक्षणसंस्थानतो वर्षविभाग उपवर्ण्यते। जम्बूद्वीपोऽयम् यावत्प्रमाणविस्तारस्तावता क्षारोदधिना परिवेष्टितो यथा मेरुर्जम्ब्वाख्येन लवणोदधिरपि ततो द्विगुणविशालेन प्लक्षाख्येन परिक्षिप्तो यथा परिखा बाह्योपवनेन। प्लक्षो जम्बूप्रमाणो द्वीपाख्याकरो हिरण्मय उत्थितो यत्राग्निरुपास्ते सप्तजिह्वस्तस्याधिपतिः प्रियव्रतात्मज इद्मजिह्वः स्वं द्वीपं सप्तवर्षाणि विभज्य सप्तवर्षनामभ्य आत्मजेभ्य आकलय्य स्वयमात्मयोगेनोपरराम शिवं यवसं सुभद्रं शान्तं क्षेममममृतमभयमिति वर्षाणि तेषु गिरयो नद्यश्च सप्तैवाभिज्ञाताः मणिकूटो वज्रकूट इन्द्रसेनो ज्योतिष्मान् सुपर्णो हिरण्यष्ठीवो मेघमाल इति सेतुशैलाः अरुणान् नृम्णाङ्गिरसि सावित्री सुप्रभाता ऋतम्भरा सत्यं धरा इति महानद्यः यासां जलोपस्पर्शन विधूतरजस्तमसो हंसपतङ्गोर्ध्वायन सत्याङ्गसंज्ञाश्चत्वारो वर्णाः सहस्रायुषो विबुधोपमसन्दर्शनप्रजननाः स्वर्गद्वारं त्रय्या विद्यया भगवन्तं त्रयीमयं सूर्यमात्मानं यजन्ते प्रत्नस्य विष्णोरूपं यत् सत्यस्यर्थस्य ब्रह्मणः अमृतस्य च मृत्योश्च सूर्यमात्मानमीमहीति। प्लक्षादिषु पञ्चसु पुरुषाणामायुरिन्द्रियमोजः सहोबलं बुद्धिर्विक्रम इति च सर्वेषामौत्पत्तिकी सिद्धिरविशेषेण वर्तते। प्लक्षः स्वसमानेनेक्षुरसो देनावृतो यथा तथा द्वीपोऽपि शाल्मलो द्विगुणविशालः समानेन सुरोदेनावृतः परिवृङ्क्ते। यत्र वै शाल्मली प्लक्षायामा यस्यां वावकिल निलयमाहुर्भगवतश्छन्दः स्तुतः पदत्रिराजस्य सा द्वीपहूतये उपलक्ष्यते। तद्द्वीपाधिपतिः प्रियव्रतात्मजो यज्ञबाहुः स्वसुतेभ्यः सप्तभ्यस्तन्नामानि सप्तवर्षाणि व्यभजत् सुरोचनं सौमनस्यं रमणकं देववर्षं पारिभद्रमाप्यायनमविज्ञातमिति। तेषु वर्षाद्रयो नद्यश्च सप्तैवाभिज्ञाताः स्वरसः सतशृङ्गो वामदेवः कुन्दो मुकुन्दः पुष्पवर्षः सहस्रश्रुतिरिति। अनुमतिः सिनीवाली सरस्वती कुहूरजनीनन्दाराकेति। तद्वर्षपुरुषाः श्रुतधरवीर्यधर वसुन्धरेशन्धरसंज्ञा भगवन्तं वेदमयं सोममात्मानं वेदेन यजन्ते। स्वगोपिः पितृदेवेभ्यो विभजन् कृष्णशुक्लयोः प्रजानां सर्वासां राजान्तः सोमो न आस्त्विति। एवं सुरोदाद्बहिस्तद्विगुणः समानेनावृतो घृतोदेन यथा पूर्वः कुशद्वीपो यस्मिन् कुशस्तम्भो देवकृतस्तद्वीपाख्याकरो जलन इवापरः स्वशस्परोचिषा दिशो विराजयति। तद्वीपपतिः प्रयव्रतो राजन् हिरण्यरेतो नाम स्वं द्वीपं सप्तभ्यः स्वपुत्रेभ्यो यथा भागं विभज्य स्वयं तप आतिष्ठत। वसुवसुदानदृढरुचिनाभिगुप्तस्तुत्यव्रतविविक्तवामदेवनामभ्यः तेषां वर्षेषु सीमागिरयो नद्यश्चाभिज्ञाताः सप्त सप्तैव चक्रश्चतुःशृङ्गः कपिलश्चित्रकूटो देवानीक ऊर्ध्वरोमा द्रविण इति रसकुल्या मधुकुल्या मित्रविन्दा श्रुतविन्दा देवगर्भा घृतच्युता मन्त्रमालेति। यासां पयोभिः कुशद्वीपौकसः कुशलकोविदाभियुक्तकुलकसंज्ञा भगवन्तम् जातवेदसरूपिणं कर्मकौशलेन यजन्ते। परस्य ब्रह्मण साक्षाज्जातवेदोऽसि हव्यवाट् देवानां पुरुषाङ्गानां यज्ञेन पुरुषं यजेति। तथा घृतोदाद्बहिः क्रौञ्चद्वीपो द्विगुणः स्वमानेन क्षीरोदेन परित उपक्लिप्तो व्रतो यथा कुशद्वीपो घृतोदेन यस्मिन् क्रौञ्चो नाम पर्वतराजो द्वीपनाम निर्वर्तक आस्ते। योऽसौ गुहप्रहरणोन्मथितनितम्बकुञ्जोऽपि क्षीरोदेनासिच्यमानो भगवता वरुणेनाभिगुप्तो विभयो बभूव। तस्मिन्नपि प्रयव्रतो घृतपृष्ठो नामाधिपतिः स्वे द्वीपे वर्षाणि सप्त विभज्यतेषु पुत्रनामसु सप्तरिक्थादान् वर्षवान्निवेश्य स्वयं भगवान् भगवत परमकल्याणयशस आत्मभूतस्य हरेश्चरणारविन्दमुपजगाम। आमो मधुरुहो मेघपृष्ठः सुधामा भ्राजिष्ठो लोहितार्णो वनस्पतिरिति घृतपृष्ठ सुतास्तेषाम् वर्षगिरयः सप्त सप्तैव नद्यश्चाभिख्याताः शुक्लो वर्धमानो भोजन उपबर्हिणो नन्दो नन्दनः सर्वतो भद्र इति अभया अमृतौघा आर्यका तीर्थवती वृत्तिरूपवती पवित्रवती शुक्लेति। यासामम्बः पवित्रममलमुपयुञ्जानाः पुरुषऋषभद्रवीणदेवकसंज्ञा वर्षपुरुषा आपोमयम् देवमपाम् पूर्णेनाञ्जलिना यजन्ते आपः पुरुषवीर्यास्थ पुनन्तीर्भूर्भुवः सुवः तानः पुनीतामिवग्नीः स्पृशतामात्मना भुव इति एवम् पुरस्तात् क्षीरोदात् परित उपवेशितः शाकद्वीपो द्वात्रिंशल्लक्षयोजनायामः समानेन च दधिमण्डोदेन परितो यस्मिन् शाको नाम महीरुहः स्वक्षेत्रव्यपदेशको यस्य महासुरभिगन्धस्थम् द्वीपमनुवासयति तस्यापि प्रय्यव्रत एवाधिपतिर्नाम्ना मेधातिथिः सोऽपि विभज्य सप्तवर्षाणि पुत्रनामानि तेषु स्वात्मजान् पुरोजव मनोजव पवमान धूम्रानीक चित्ररेफ बहुरूप विश्वधार संज्ञान्यधाप्याधिपतीन् स्वयं भगवत्यनन्तावेशितमतिस्तपोवनं प्रविवेश एतेषां वर्षमर्यादा गिरयो नद्यश्च सप्त सप्तैव ईशान उरुशृङ्गो बलभद्रः शतकेशरः सहस्रस्रोतो देवपालो महानस इति अनघायुर्दा उभयस्पृष्टिरपराजिता पञ्चपदी सहस्रश्रुतिर्निज धृतिरिति तद्वर्षपुरुषा ऋतव्रत सत्यव्रत दानव्रतानुव्रतनामानो भगवन्तं वाय्वात्मकम् प्राणायामविधूतरजस्तमसः परमसमाधिना यजन्ते अन्तः प्रविश्य भूतानि यो बिभर्त्यात्मकेतुभिः अन्तर्यामीश्वरः साक्षात् पातु नो यद्वशे स्फुटम् एवमेव दधिमण्डोदात् परतः पुष्करद्वीपस्ततो द्विगुणायामः समन्तत उपकल्पितः समानेन स्वादूदकेन समुद्रेण बहिरावृतो यस्मिन् बृहत्पुष्करम् ज्वलनशिखामलकनकपत्रायुतायुतम् भगवतः कमलासनस्याध्यासनम् परिकल्पितम् तद्द्वीपमध्ये मानसोत्तरनामैक एवार्वाचीनपराचीनवर्षयोर्मर्यादाचलो युतयोजनोच्छ्रायायामो यत्र तु चतसृषु दिक्षु चत्वारि पुराणि लोकपालानामिन्द्रादीनाम् यदुपरिष्टात् सूर्यरथस्य मेरुम् परिभ्रमतः संवत्सरात्मकम् चक्रम् देवानामहोरात्राभ्याम् परिभ्रमति तद्द्वीपस्याप्यधिपतिः प्रय्यव्रतो वीतिहोत्रो नामै तस्यात्मजौ रमणकधातकिनामानौ वर्षपति नियुज्य स स्वयम् पूर्वजवद्भगवत्कर्मशील एवास्ते तद्वर्षपुरुषा भगवन्तम् ब्रह्मरूपिणम् सकर्मकेण कर्मणाराधयन्तीदम् चोदाहरन्ति यत्तत्कर्ममयम् लिङ्गम् ब्रह्मलिङ्गम् जनोर्चयेत् एकान्तमद्वयम् शान्तम् तस्मै भगवते नम इति ऋषिरुवाच ततः परस्ताल्लोकालोकनामाचलो लोकालोकयोरन्तराले परित उपक्षिप्तः यावन्मानसोत्तरमेर्वोरन्तरम् तावती भूमिः काञ्चन्यन्यादर्शतलोपमा यस्याम् प्रहितः पदार्थो न कथञ्चित् पुनः प्रत्युपलभ्यते तस्मात् सर्वसत्त्वपरिहृतासीत् लोकालोक इति समाख्यायतनेनाचलेन लोकालोकस्यान्तर्वर्तिनावस्थाप्यते स लोकत्रयान्ते परित ईश्वरेण विहितो यस्मात् सूर्यादीनाम् ध्रुवापवर्गाणाम् ज्योतिर्गणानाम् गभस्तयोर्वाचीनान् स्त्रीन् लोकाना वितन्वाना न कदाचित् पराचीना भवितुमुत्सहन्ते तावदुन्नहनायामः एतावान् लोकविन्यासो मानलक्षणसंस्थाभिर्विचिन्तितः कविभिः स तु पञ्चाशत्कोटिगणितस्य भूगोलस्य तुरीयभागोऽयम् लोकालोकाचलः तदुपरिष्टा चतसृस्वाश्वास्वात्मयोनिनाखिल जगद्गुरुणाधिनिवेशिता ये द्विरदपतय ऋषभः पुष्करचूडो वामनोपराजित इति सकललोकस्थितिहेतवः तेषाम् स्वविभूतीनाम् लोकपालानाम् च विविधवीर्योपब्रह्मणाय भगवान् परममहापुरुषो महाविभूतिपतिरन्तर्याम्यात्मनो विशुद्धसत्त्वम् धर्मज्ञानवैराग्यैश्वर्याद्यष्टमहासिद्ध्युपलक्षणम् विश्वक्सेनादिभिः स्वपार्षदप्रवरैः परिवारितो निजवरायुधोपशोभितैर्निजभुजदण्डैः सन्धारयमाणस्तस्मिन् गिरिवरे समन्तात् सकललोकस्वस्थयास्ते आकल्पमेवं वेषम् गत एष भगवानात्मयोगमायया विरचित विविधलोकयात्रा गोपीथायेत्यर्थः योऽन्तर्विस्तार एतेन यलोकपरिमाणम् च व्याख्यातम् यद्बहिर्लोकालोकाचलात् ततः परस्ताद् योगेश्वर गतिम् विशुद्धामुदाहरन्ति अण्डमध्यगतः सूर्योद्यावा भूम्योर्यदन्तरम् सूर्याण्डगोलयोर्मध्ये कोट्यः स्युः पञ्चविंशतिः मृतेऽण्ड एष एतस्मिन् यदभूत्ततो मार्तण्ड इति व्यपदेशः हिरण्यगर्भ इति यद्धिरण्याण्डसमुद्भवः सूर्येण हि विभज्यन्ते दिशखम् द्यौर्महीभिदा स्वर्गापवर्गौ नरकारसौ कांस्य च सर्वशः देवतिर्यं मनुष्याणां सरीसृपसवीरुधां सर्वजीवनिकायानां सूर्यात्मा दृगीश्वरः। ओम स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पंचमस्कंधे भुवनकोशवर्णने समुद्रवर्षसन्निवेशपरिमाणलक्षणो विंशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणां भोजे रतिः स्यादनपायिनी।